एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः अर्थमन्त्री डाक्टर युवराज खतिवडा भाषते स्वास्थ्यम् शिक्षा कृष्याम् निवेशनस्य वृद्धि वृत्तिपार्जनस्य सर्जनम् च आगामिनः आयव्ययकस्य प्राथमिकतायाम् समावेक्ष्यन्ते राष्ट्रियसभायाम् आगामिनः आर्थिकवर्षस्य कृते विनियोजन विधेयकस्य सिद्धान्त प्राथमिकता विषयके विमर्शने उत्थितान् विषयान् गतदिने उत्तरायन अर्थमन्त्री डाक्टर खतिवडा अवासत संविधानेन निर्दिष्टो भूत्वा दलस्य सिद्धान्तम् अनुसृत्य च आयव्ययकम् आनिष्यते अर्थमन्त्री डाक्टर खतिवडा कोरोना विषाणोः कारणेन जनजीवने दृष्टानाम् समस्यानाम् समाधानाय सर्वकारस्य प्रथमा प्राथमिकता स्वास्थ्यमस्थिति स्पष्टीकुर्वन् आर्थिकवृद्धौ आन्तरिकोत्पादने वितरणे च आयव्ययके ध्यानम् प्रदास्यते इति अज्ञापयत् अर्थमन्त्री डाक्टर खतिवडा प्रदेशान् स्थानीयस्तरान् च सेवा प्रवाहे सबलान् सक्षमांश्च विधातुम् विशेषम् बलम् दास्यते इति समस्पष्टयत् अर्थमन्त्री डाक्टर खतिवडा विमर्शने सांसदेभ्यः प्राप्तान् परामर्शान् आयव्ययकस्य निर्माणाय मार्गदर्शनस्य रूपेण मत्वा अग्रे वर्धिष्यते इति प्रतिबद्धताम् व्यक्तवान् राष्ट्रियसभायाः अपरोपवेशा स्वो वैशाखस्य एकविंशे दिवसे बुधवासरे पूर्वाह्नस्य एकादशवादने वस्ता प्रतिनिधिसभायाः उपवेशे आगामिनः आर्थिकवर्षस्य कृते विनियोजन विधेयकस्य सिद्धान्तम् प्राथमिकताञ्च आश्रित्य विमर्शनम् गतदिवसात् प्रारब्धमस्ति विमर्शने भागम् गृह्णन्तः सांसदाः कोरोना संक्रमणस्य अनन्तरम् उत्पन्नाम् परिस्थितिम् ध्यात्वा आयव्ययकस्य आनयने बलम् प्रादुः विमर्शने सत्तापक्षिणः सांसदाः कोरोना विषाणुभ्यः आविश्वम् आक्रान्तम् सम्भूय अर्थतन्त्रस्य संकटग्रस्तस्य अवस्थायाम् नेपालेऽपि संकटेन सम्भावितम् सम्पूर्ण प्रभावम् अदित्यैव आयव्ययकम् आनेयम् इत्यवोचन् विमर्शने सहभागिनः प्रतिपक्षिदलस्य सांसदाः वासन्त संकटस्य अस्याम् अवस्थायाम् नेपालस्य अर्थतन्त्रम् उन्नेतुम् राष्ट्रिय दृढता आवश्यकी वर्तते इति वर्तमानायाम् असहजावस्थायाम् परिमितम् आयव्ययकम् आनीय श्रावणमासस्य अनन्तरम् सम्पूर्णावस्थायाः मूल्याङ्कनम् विधाय आयव्ययकस्य आनयनम् उचितम् अस्तीति च परामृष्टवन्त सांसदाः देशीय प्रवेश शुल्कः न्यूनीभूतः वैदेशिक वृत्त्युपार्जनम् अनिश्चितीभूतम् पर्यटन व्यापार व्यवसायादीनि सम्पूर्णानि क्षेत्राणि प्रभावितानि च सन्तीति अवस्थायाम् कृषिक्षेत्रम् विशेषावसरस्य रूपेण मत्वा अग्रे प्रवर्धने च बलम् प्रादुः तत्पूर्वम् प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदाः कोरोना संक्रमणस्य प्रवर्धनेन सहैव प्रतिवेशिना भारतेन सहैव विभिन्नेषु देशेषु असहायावस्थायाम् स्थितान् नेपाली नागरिकान् नेपाले आनीय सुरक्षणकक्षे संस्थापनस्य व्यवस्थायै च सर्वकारस्य ध्यानम् आकर्षयन् प्रतिनिधिसभायाः अपरोपवेश अद्य पूर्वाह्नस्य एकादशवादने वसति परराष्ट्रमन्त्री प्रदीप कुमार गेवाली निगदति भारतेन सह अविलम्बम् वार्ताम् विधाय सीमा सम्बद्धाम् समस्याम् समाधातुम् सर्वकारः तत्परो वर्तते अन्तर्राष्ट्रिय सम्बन्ध समितेः गतदिवसीयोपवेशे परराष्ट्रमन्त्री गेवाली अवदत् लिपुलेख प्रवृत्ते द्विपक्षीय सीमा समस्यायाः समाधानस्य पश्चादेव लिपुलेख भागस्य व्यापार बिन्दोः रूपेण उपयोग विषयकस्य भारत चीन देशयो निर्णयस्य सम्बन्धे चीनदेशेन सह पृथक् वार्तायाः सञ्चालनम् उपयुक्तम् भवति कालापानी क्षेत्रस्य नेपाली भूभागम् समावेश्य भारतेन स्वस्य मानचित्रस्य प्रकाशनस्य अनन्तरम् नेपाल सर्वकारेण भारतीय पक्षाय औपचारिक रूपेण अनौपचारिक रूपेण च बहुवारम् नेपालस्य धारणा स्पष्टीकृता वार्तायै आह्वानम् च विहितम् इति ज्ञापयन् मन्त्री गेवाली कोरोना महामार्याः समनस्य पश्चात् वार्ता विधातुम् शक्यते इति भारतस्य अभिव्यक्तौ अनुकूलायम् सत्यमपि तत्पूर्वमेव पक्षद्वयस्यैव मध्ये शीघ्रम् वार्ताम् विधातुम् बलम् अददात् सुमधुर प्रतिवेशितायाः आधारे भारतेन सह नेपालः वार्ताम् कर्तुम् समीहते इति चर्चयन् मन्त्री गेवाली अतर्कयत् सीमा समस्यायाः द्विपक्षीय रूपेण कूटनीतिक माध्यमेन समाधानाय प्रयासेन विना अन्तर्राष्ट्रिय न्यायालयस्य द्वारे प्राप्तिः उपयुक्ता न भवति उपवेशे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री पद्मा हरियालः द्विपक्षीय सहमतेः आधारे स्वस्व भूभागस्य पृथक्करणम् अन्तर्राष्ट्रिय सीमा मानचित्रस्य प्रकाशनम् च अन्तर्राष्ट्रिय प्रचलनम् सदपि भारतेन तद् उल्लङ्घितम् इति हेतोः नेपाल सर्वकारेण मानचित्रस्य प्रकाशने ईषद् विलम्बो जात इति समस्पष्टयत् नेपाली कांग्रेस दलेन कालापानी क्षेत्रस्य सीमा विवाद दीर्घकालात् देशद्वय वार्ताया क्रमे वर्तते एवं देशद्वयेनैव तत्क्षेत्रं विवादितं मत्वा वार्तायां स्थापितायं सत्यं भारतेन तस्मिन् स्थाने एकपक्षीय रूपेण मार्ग निर्माणं विहितमिति घटनाया सम्बन्धे संसदि संकल्प प्रस्ताव पञ्जीकारितो वर्तते। कांग्रेस दलस्य सांसदै दिलेन्द्र प्रसाद बडु, मीनबहादुर विश्वकर्मा, रामबहादुर विष्ट, प्रकाश रसाइली इत्येतैः गतदिने पञ्जीकारिते तस्मिन् प्रस्तावे तत्कालं चीन सर्वकारेण भारत सर्वकारेण च सह अविलम्बं कूटनीतिक प्रयासं विधाय निर्णायक वार्ता विधातव्येति उल्लिखिता वर्तते। कपिलवस्तु, रूपन्देही, वर्दिया, सप्तरी जनपदेषु गतदिने अतिरिक्तेषु चतुर्विंशत्यां जनपदे जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। कपिलवस्तु जनपदे 16 पुरुषेषु, रूपन्देही जनपदे 67 पुरुषेषु, वर्दिया एकस्यां महिलायां, सप्तरी जनपदे एकस्मिन् युवके च समाहत्य चतुर्विंशत्यां जनेषु कोरोना संक्रमणं पुष्टिभूतम् अस्तीति स्वास्थ्य जनसंख्या मन्त्रालयस्य सहप्रवक्त्रा डाक्टर समीर कुमार अधिकारिणा गतसायं प्रकाशितायं विज्ञप्तौ ज्ञापितं वर्तते। अनेन सहैव नेपाले कोरोना संक्रान्तानां संख्या अद्यावधि 34,100 सम्प्राप्ता अस्ति। कपिलवस्तु जनपदे कोरोना संक्रान्तानां संख्याया क्रमेण वर्धनम् अनु जनपद सुरक्षा समितेः उपवेशेन कपिलवस्तु जनपदं परिपिधातुं निर्णीतं वर्तते। गतसायं पञ्चवादनात् आगामिनो ज्येष्ठमासस्य पञ्चम दिवसस्य रात्रौ द्वादशवादनं यावत् क्रियान्वयनत्वेन जनपदं परिपिधातुं निर्णीतम् इति कपिलवस्तु जनपद प्रशासन कार्यालयेन ज्ञापितमस्ति। नेपालाय चीन सर्वकारेण कोविड 19 विषाणो निरोधन नियन्त्रणयोः कृते स्वास्थ्य सामग्र्यः प्रदत्ताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रिणे भानुभक्त ढकालाय ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे नेपालस्य कृते चीन देशीय राजदूत होङयाङची इमा सामग्री हस्तान्तरितवती। तदवसरे स्वास्थ्यमन्त्री ढकालः प्रतिवेशिना चीन देशेन संकटस्य समये सहयोगः विधीयमानोऽस्तीति चर्चयन् अवोचत् आपत्तिकाले प्रतिवेशिना विहितः सहयोगः अविस्मरणीयो भवति। चीनदेशस्य राजदूतः ह्याङची कतिचित् समयपूर्वं चीनदेशे संकटस्य समये नेपालेन सहयोगो विहित इति स्मरन्ति, सम्प्रति नेपालाय सहयोग प्रदानेन हर्षम् अनुभूतम् इति अवोचत्। कर्णाली प्रदेश सर्वकारेण प्रदेश पिधानं निवारयितुं नूतना रणनीति अवलम्ब्यते। अद्यावधि कोरोना संक्रमण रहितस्य कर्णाली प्रदेशस्य जनपदेषु जनगृहेषु एव प्राप्य आसन्न 10,000 जनानां पीसीआर परीक्षणं विधाय एतस्य परिणामस्य आधारे प्रदेश पिधानं निवारयितुं पूर्वकार्यं विधीयमानम् अस्तीति कर्णाली प्रदेशस्य मुख्यमन्त्री महेन्द्र बहादुर शाही अज्ञापयत् इति समाचारः।